अपानति प्राणति पुरुषो गर्भ्यन्तरा यदा त्वं प्राणजिन्वस्यथ स जायते भव्यं च प्राणे सर्वं प्रतिष्ठ